Begini.
Om Sahana Vavatu Sahanau Bhunaktu Sahaviryam Karavavahai Tejasvina Vadhitamastu Mavidvishavahai Om Shanti Shanti Shantihi.
धन्यवाद भगिनी.
धन्यवाद भगिनी.
हरि ओम् रघुवीरानन्द महोदय नमस्कारः. सभ्यो नमः. इदानीं वर्गम् आरम्भं कर्तुं शक्नुमः. अत्र अस्माकं प्रवर्तमानविषयः अस्ति चतुर्थी विभक्ति इति. गतवर्गे वयं तस्मिन् विषये तत्र गीतासोपाने प्रथमभागे तत्र वयं बहु किमपि कृतवन्तः. तत्र एषः विषयः पेज् 147 तत्र ततः भवति. इदानीं वयं कुत्र स्मः? पेज् 152 इति मन्ये. तत्र एकवारं चतुर्थीविभक्तेः रूपस्य पुनस्मरणं कृत्वा अग्रे गच्छामः. तत्र रूपाणि कीदृशानि इति. तत्र अकारान्त पुल्लिङ्गे ललिता भगिनी, अकारान्त पुल्लिङ्ग शब्दे तत्र रूपं कीदृशं भवति? चतुर्थीविभक्तिरूपं देवः इति पदे. हा, देवः.
देवः 152.
किन्तु तत्र न द्रष्टव्यं, मनसि भवेत्.
देवः
149 मध्ये 148 मध्ये दत्तमस्ति, किन्तु न द्रष्टव्यम्.
अहं न दृष्टवती. ओके,
अस्तु भगिनि. देवाय
देवाय देवेभ्यः.
तत् बहुवचने, द्विवचने.
देवाय देवाभ्यां देवेभ्यः.
बहु समीचीनं भगिनि. बहु समीचीनम्. अस्तु लक्ष्मी भगिनि, तत्र कविः इति किं भवति? कवये कवये
कवये कविभ्यां कविभ्यः.
कविभ्यः, समीचीनं भगिनि. हा, अस्तु. पूर्णेन्द्र महोदय, तत्र इदानीं तत्र लता अस्ति चेत् तत् किं भवति? तस्य रूपाणि,
तस्य रूपाणि महोदय.
लता, लता इति आकारान्तस्त्रीलिङ्गपदम्. लताभ्यः, समीचीनं. हा, उषा भगिनी, इदानीं तत्र नदी अस्ति चेत्?
अस्तु महोदय, नदी नद्यै नदीभ्यां नदीभ्यः
नदीभ्यः, समीचीनं. हा, वेदा भगिनी, इदानीं गुरुः अस्ति चेत्?
गुरुः गुरवे गुरुभ्यां गुरुभ्यः
गुरुभ्यः, समीचीनं भगिनि. अस्तु, इदानीं तत्र अन्यत् किम् अस्ति? तत्र प्रायशः तत्र ऋकारान्तपदं. हा, अस्तु. रघुवीरानन्दमहोदय, तत्र पिता अस्ति चेत्? चतुर्थीविभक्तिरूपाणि पिता
पितृभ्यां पितृभ्यः.
हा, समीचीनं
महोदय. अस्तु,
हा, समीचीनं भगिनि महोदय. अस्तु, शुभा भगिनी, नमस्कारः. नमस्कारः भगिनि. इदानीं तत्र मतिः ह्रस्व इकारान्त स्त्रीलिङ्गपदं. हा, समीचीनं भगिनि. अस्तु, श्रीनिवास महोदय, नमस्कारः.
नमस्कारः महोदय.
नमस्कारः. धेनुः पदं पदस्य चतुर्थीविभक्तिरूपाणि महोदय न स्मर्यते चेत् तत्र 150 मध्ये अस्ति. धेनुः,
धेन् वा धेनुभ्यां धेनुभ्यः,
धेन् भाई इति. धेन् भाई, धेन् भाई अथवा धेनवे. हा,
धेनवे धेनुभ्यां धेनुभ्यः
धेनुभ्यः, तावदेव. समीचीनं महोदय. अस्तु, शोभा भगिनी, तत्र चमु अस्ति चेत्?
चमु वै चमुभ्यां चमुभ्यः चमुभ्यः
चं वै चमुभ्यां चमुभ्यः धेनुवत् किन्तु इदानीं दीर्घ उकारः समीचीनं भगिनि दीर्घ उकारः समीचीनम् अस्तु अतः इदानीं तत्र पुनस्मरणं जातम् इति कृत्वा अग्रे गन्तुं शक्नुमः इति मन्ये तत्र अभ्यासः अस्ति चतुर्थ अभ्यासः पुटसङ्ख्या 152 मध्ये एतावत् वयं केवलं तत्र रूपाणि दृष्टवन्तः तत्र ददाति इति अस्ति चेत् तत्र कस्मै ददाति अत्र चतुर्थी विभक्ति भवति किं ददाति इति पदस्य विभक्ति का तत्र पुस्तकमस्ति रामाय दत्तुम् इच्छामः किन्तु तत्र वाक्यं कीदृशं भवति पुस्तकम् अस्ति चेत् तत्र रामाय
पुस्तकं
ददामि अत्र पुस्तकमिति पदस्य विभक्ति का द्वितीय कर्मपदं कर्मपदम् इति कृत्वा समीचीनम् अत्र वयम् अन्यः प्रयोगः अपि इदानीं पश्यामः तत्र कस्मिन् सन्दर्भे चतुर्थी भवति तत्र धानमिति सन्दर्भे भवति अपि तत्र वयं पश्यामः तत्र किमर्थम् इति अपि रोचते इति सन्दर्भे अपि नमः इति सन्दर्भे तत्रापि चतुर्थीविभक्तिरूपस्य प्रयोगः भवति इति पश्यामः किन्तु अस्मिन् अभ्यासे केवलं तत्र रूपस्य अभ्यासः तावदेव ददाति इति अस्तु अतः प्रायशः सुलभः एव अस्ति इति मन्ये अस्तु शुभदा भगिनी नमस्कारः नमस्कारः भगिनि अन्य कोऽपि अस्ति वा
नमस्ते महोदय
मधुसूदन महोदय नमस्कारः महोदय नमस्कारः अस्तु अतः वयं पेज् 152 तत्र स्मः अस्तु तत्र शुभदा भगिनी आरम्भं कर्तुम् इच्छति वा तत्र पेज् 152 मध्ये तत्र चतुर्थाभ्यासः
एतस्य कोष्ठकस्य साहाय्येन यथोदाहरणं वाक्यानि रचयत गृहस्थः अतिथिः अतिथयः आतिथ्यम् उदाहरणार्थं गृहस्थः अतिथये आतिथ्यं ददाति
तत्र किं पदं चतुर्थी विभक्तौ अस्ति अत्र अतिथये इति अस्तु समीचीनम् अपि अन्यत् वाक्यमपि तत्र दत्तमस्ति भगिनि तत्
गृहस्थः अतिथिभ्यः आतिथ्यं ददाति
अतः तत्र कार्यम् अस्माकं कार्यं किम् एकवचने अपि बहुवचने यत् पदं द्वितीयपदं यत् दत्तमस्ति तस्य परिवर्तनं करणीयं चतुर्थीविभक्तिरूपम् एकवचने बहुवचने लेखनीयम् अस्ति अस्तु समीचीनं भगिनि अस्तु अग्रिमम्
रथिकः सारथिः सारथयः प्रग्रहम् रथिकः सारथये सारथ्यं
न सारथ्यं न तत्र भगिनि तत्र क्षम्यतां तत्र द्वितीयस्तम्भे एकवचनरूपम् अस्ति तृतीयस्तम्भे बहुवचनरूपम् अस्ति तावदेव अतिथिः अतिथयः प्रथमविभक्तिरूपाणि दत्तानि सन्ति भगिनि तत्र सारथिः तस्य बहुवचनरूपं प्रथमविभक्तौ सारथयः भगिनि प्रथमम् उदाहरणं पश्यतु तत्र गृहस्थः इति प्रथमस्तम्भे अन्तिमस्तम्भे किम् अस्ति आतिथ्यम् मध्ये किम् अस्ति अतिथिः अपि तस्य बहुवचनरूपम् अतिथयः मध्ये यदस्ति तद् उपयुज्य वाक्यद्वयं करणीयम्. स्पष्टं वा इदानीं?
महोदय.
अस्तु.
रथिकः सारथिः सारथयः प्रग्रहम् इति शब्दाः
दत्ताः.
रथिकः
तत्र अतिथिः वत् सारथिः, तत्र अतिथये इति अस्ति, अतः रथिकः.
रथिकः सारथये.
हा, इदानीम् अन्तिमपदं तत्र पश्यतु, तत् किमस्ति? प्रग्रहं ददाति. हा, इदानीं तत्र इदानीं बहुवचनरूपं
रथिकः सारथिभ्यः प्रग्रहं ददाति.
हा, तावदेव. हा, तत्र तत्र प्रग्रहम् इत्युक्ते तत्र कोऽपि जानाति वा तत्र प्रग्रहम् इत्युक्ते किम् इति? तत् गृहं नास्ति, गृहमपि नास्ति तत्र. किं बुधगृहं नास्ति, अस्माकं गृहं नास्ति तत्र. हा, एतत् अस्ति तत्र ब्रिडल् अथवा रेन्स् इति वदामः. तत्र येन वयं अश्वस्य नियन्त्रणं कर्तुं साधारणतया कुर्मः सः अस्ति प्रगृहं. रथिकः अपि सारथिः, तत्र सारथिः यः चालयति, किन्तु रथिकः यस्य रथम् अस्ति सः रथिकः, यस्य रथः अस्ति सः रथिकः. सः चालयति न वा इति न जानीमः, अत्र सः न चालयति, किन्तु रथिकः यस्य रथः सः रथिकः, यः चालयति सः सारथिः. भेदः स्पष्टं वा, स्पष्टः वा? रथिकः सारथिः, अतः रथिकः सारथये किं प्रग्रहं ददाति. अस्तु, समीचीनम्. अस्तु, अग्रे वंशीसुधा भगिनी. नमस्कार भगिनि. नमस्कार भगिनि.
महोदय, कुत्र कुत्र?
152 भगिनि, 152.
क्षम्यतां.
धन्यवादः. मधुसूदन महोदय, इदानीं द्वितीयवाक्यं करोति वा तत्र?
महोदय, गुरुः गुरवे.
न, गुरुः इति कर्तृपदं भवति महोदय. तत्र गुरुः
वटुः वटुः
आशिषम् आशिषम्
आतिष्ठ्यं ददाति.
हा, किन्तु तत्र वटुः अस्ति, वटुः इति तस्य चतुर्थीविभक्तिरूपम् अपेक्षितम् अस्ति महोदय. यदि किमपि दातुम् इच्छामः, तत्र कस्मै दद्मः इति भवति, अतः तत्र वटुः इति पदस्य चतुर्थीविभक्तिरूपं किम् अस्ति? भवान् गुरुशब्दस्य उक्तवान्, तदेव वटुः शब्द उपयुज्य वदतु.
गुरुः गुरवे गुरूणां.
न, एकवचने. तत्र गुरुः इति किं भवति तस्य चतुर्थीविभक्तिरूपं? भवान् उक्तवान् तत्
गुरवे.
हा, गुरवे, गुरवे. इदानीं तत्र वटुः अस्ति चेत्, वटुः अस्ति चेत्
वटवे महोदय.
हा, गुरुः वटवे.
गुरुः वटवे
आशिषम् आशिषं ददाति, आशीर्वादं करोति इति अर्थः. आशिषम् आशिषं ददाति. तत्र वटवः इति अस्ति, तत्र किं भवति? वटवः, गुरवः,
वटवः
चतुर्थीविभक्ति
गुरवे.
गुरवे एकवचने अस्ति, वटवे एकवचने अस्ति. इदानीं तत्र
वटुभ्यां.
हा, वटुभ्यां. एतत् प्रसिद्ध श्रीगुरवे नमः अपि श्रीगुरुभ्यो नमः द्वयमपि बहु प्रसिद्धः अस्ति खलु खलु अतः तावत् तत्र वटुः वटवे वटवः वटुभ्यां 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 आशिषं ददाति अयि न न चिन्ता मास्तु महोदय चिन्ता मास्तु न न चिन्ता इदानीं स्पष्टं वा महोदय अस्तु 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 तर्हि तत्र ललिताभगिनी अग्रे माता ललिताभगिनी
अस्तु अस्तु माता सूनुः दुग्धं ददाति माता सूनवे सूनवे दुग्धं ददाति माता सूनुभ्यां दुग्धं ददाति
हा तावदेव समीचीनम् अस्तु अग्रे लक्ष्मी भगिनी
तत्र क्षम्यता महोदय तत्र सूनुः पुत्रः अपि भवितुमर्हति पुत्री अपि भवितुमर्हति
आं भगिनि आं तत्र तत्र
द्वयोः
पदं पुल्लिङ्गे अस्ति पदं पुल्लिङ्गे अस्ति
कथं जानामि महोदय सूनुः
न तत्र यत्र यदा तत्र वयं जानीमः खलु भगिनि लिङ्गं संस्कृतभाषायां लिङ्गं कस्य लिङ्गं भवति न न कस्य लिङ्गं लिङ्गं कस्य भवति पदस्य लिङ्गं खलु तत्र पुस्तकमिति तत् पुस्तकं भवति पुस्तिका अपि भवति अतः तत्र वस्तोः लिङ्गं न केवलं पदस्य लिङ्गमेव अस्ति खलु
आं महोदय तदेव अहं वदिष्यामि उक्तवती सूनुः इति तत्र पुल्लिङ्गशब्दः अपि भवितुमर्हति सूनुः पुत्री शब्दः अपि स्त्रीलिङ्गशब्दः
सूनुः इति अर्थः पुत्री इति भवति किन्तु तत्र अत्र प्रायशः पुल्लिङ्ग ओ क्षम्यतां प्रायशः न न रूपद्वयमस्ति इति रूपद्वयमस्ति इति मन्ये तत्र हा तत्र पुल्लिङ्गे अपि अस्ति स्त्रीलिङ्गे अपि अस्ति सत्यं भगिनि धन्यवादः हा हा धन्यवादः रूपभेदः नास्ति रूपभेदः नास्ति किन्तु किन्तु सन्दर्भानुसारं तत् पुत्री भवति अथवा पुत्रः अपि भवति सत्यं भगिनि हा धन्यवादः हा इदानीम् अवगतम्
तत्र स्त्रीलिङ्गे एव भवति सूनुः इति पुत्रः अपि भवितुमर्हति पुत्री अपि
भवितुमर्हतिः इति नास्ति वा
न भगिनि न न केवलं पुत्री अथवा पुत्रः भगिनि
स्पोकन् संस्कृत मध्ये दत्तम् अतः पृच्छामि
तदपि एकम् अर्थं दत्तम्
अस्ति न जानामि भगिनि अत्र तु अत्र अत्र तु पुत्रः अथवा पुत्री एव इति मन्ये यतः माता इति अस्ति तत् प्रायशः भवितुमर्हति तद् भवितुमर्हति इति किन्तु
सूनवः इति दत्तं महोदय गुरवः इति तत्र तु पुंलिङ्गे एव खलु
सूनुः तत्र सूनु अस्ति चेत् तत्र किं भवति तत्र
तत्र कोष्टके महोदय सूनुः बहुवचने सूनवः इति दत्तं तत्र तु पुंलिङ्गे एव
सत्यं भगिनि यतः तत्र सूनु आसीत् चेत् तत्र वधू शब्दवत् भवति अतः सून्वः इति भवेत् इति भवत्याः चिन्तनं वा सत्यं भगिनि अतः तत्र पुल्लिङ्गे अस्ति यतः तत्र वयम् एतदपि वयं जानीमः खलु तत्र सूनवः
महोदय यद्यपि तत्र पदं स्त्रीलिङ्गं भवितुमर्हति या पुल्लिङ्गं भवति चतुर्थविभक्तिरूपं समानं भवति महोदय सूनवे इति भवति महोदय
अस्तु किन्तु तत्र अत्र तु तस्य अर्थः तु पुत्रः अथवा पुत्री अस्मिन् प्रसङ्गे अन्ये अर्थाः भवेयुः किन्तु अहम् एतावत् न दृष्टवान् अतः न जानामि हा यदि तत्र तस्य प्रयोगः कुत्रापि वयं पश्यामः, अतः मनसि स्थापितं भवति. नो चेत् तत्र किं भवति, अस्तु एतस्य पदस्य एषः अर्थः अस्ति किन्तु मनसि मम मनसि न तिष्ठति.
इदानीं तत्र
अस्तु भगिनि, समीचीनमेव. इदानीं स्मरामि. अस्तु अस्तु, अग्रे लक्ष्मी भगिनि अग्रे.
अस्तु महोदय, ऋकारान्तः भोक्त्रे भोक्तृभ्यां भोक्तृभ्यः भोक्त्रे भोजनं ददाति. भोक्तृभ्यः भोजनं ददाति.
हा समीचीनं भगिनि, समीचीनं, धन्यवादः. शोभा भगिनि अग्रे.
प्रकृतिः कर्ता कर्तारः प्रेरणां ददाति. प्रकृतिः कर्ता तत्र दीर्घः नास्ति. कर्ता अस्तु महोदय, ऋकारान्तपदं तत्र भ्राता इति शब्दं. कर्त्रे प्रेरणां ददाति. प्रकृतिः कर्तृभ्यः प्रेरणां ददाति.
समीचीनं भगिनि. हा कर्त्रे कर्तृभ्यः, समीचीनं भगिनि. हा पूर्णेन्दु महोदय, धन्यवादः भगिनि. अग्रे पूर्णेन्दु महोदय.
नेता कविः कवयः मानपत्रं ददाति. अत्र कविः एकवचने अस्ति, तस्य चतुर्थी विभक्ति एकवचन कवेः. नेता
कवये
नेता कवये मानपत्रं ददाति. अनन्तरं कवयः बहुवचने भविष्यति. कविभ्यः
कविभ्यः
मानपत्रं ददाति.
मानपत्रं ददाति, समीचीनं महोदय. उषा भगिनी अग्रे.
कृषकः जन्तुः जन्तवः आहारं. जन्तुः गुरुशब्दवत् अस्ति महोदय. कृषकः जन्तवे आहारं ददाति. कृषकः जन्तुभ्याम् आहारं ददाति.
द्विवचने बहुवचने?
कृषकः जन्तुभ्यः आहारं ददाति.
हा तावदेव, समीचीनं भगिनि. हा वेदा भगिनि अग्रे.
भवान् व्यक्तिः वस्त्राणि ददाति. भवान् व्यक्तिः व्यक्त्योः वस्त्रं ददाति, वस्त्राणि ददाति. भवान्
व्यक्त्योः किमर्थं व्यक्त्योः
वस्त्राणि ददाति. भवान् व्यक्तिभ्यः वस्त्राणि ददाति.
हा समीचीनं भगिनि. तत्र व्यक्तिः इति विशेषपदम् अस्ति. तत्र स्त्रीलिङ्गे पद स्त्रीलिङ्गे अस्ति, स्त्रीलिङ्गे अस्ति किन्तु स्त्रीलिङ्गे अस्ति किन्तु तत्र स्मर्तव्यं तत्र किं तत्र नियतलिङ्गपदम् इति किमपि तस्य विवरणमस्ति. तत्र तत्र यथा वयं वदामः तत्र मित्रं, तत्र सुरेशः मम मित्रं. सुरेशः इति पुल्लिङ्गे अस्ति, मित्रं तु नपुंसकलिङ्गे अस्ति. अथवा लता मम मित्रं तत्र स्त्रीलिङ्गे अस्ति किन्तु मित्रं नपुंसकलिङ्गे अस्ति. तादृशव्यक्तिः अपि तत्र स्त्रीलिङ्गे अस्ति. यदि कोऽपि आगच्छति, एकः पुरुषः आगच्छति चेत् प्रकोष्ठे, वयम् एषः एकः पुरुषः आगतः इति वक्तुं शक्नुमः. अथवा एका व्यक्तिः आगता इति वक्तुं शक्नुमः. यद्यपि पुरुषः एकः पुरुषः आगतः अस्ति किन्तु एका व्यक्तिः आगता इति भवति. अतः तत्र व्यक्तिः उपयुज्य पुरुषः वा महिला वा तस्य विवरणं कर्तुं शक्नुमः, किन्तु व्यक्तिः इति स्त्रीलिङ्गे एव अस्ति. तत् स्मर्तव्यम् अत्र. अस्तु, मतिः शब्दवत्. अस्तु, अग्रे रघुवीरानन्द महोदय. शिक्षकः
अध्येता, अध्येतारः पुस्तकानि ददाति. शिक्षकः अध्येतायै पुस्तकानि.
न न न न महोदय, अतः एव तत्र बहुवचनरूपं दत्तमस्ति. तस्य एकवचने अध्येता, किन्तु बहुवचने अध्येताः इति नास्ति, अध्येतारः इति अस्ति. कर्ता, कर्तारः, अध्येता, अध्येतारः, ऋकारान्तपदम्. समीचीनं महोदय. कर्ता भवति चतुर्थीविभक्तिरूपं किं
भवन्ते?
हा, भवान् एव कृतवान् तत्र ऋकारान्तपदं. हा, समीचीनं महोदय.
दृष्ट्वा
न न न एतत् एतत् पतितं तावदेव.
अध्येत्रे
पुस्तकानि ददाति. इदानीं बहुवचने
शिक्षकः अध्येतृभ्याम् अध्येतृभ्यः अध्येतृभ्यः पुस्तकानि ददाति.
हा, अध्येता इत्युक्ते छात्रः तावत्, छात्रः तावदेव. हा, अस्तु, शुभा भगिनी अग्रे. धन्यवादः महोदय.
अध्यक्षः श्रोत्रे उपायनानि ददाति. बहुवचने अध्यक्षः श्रोतृभ्यः पुस्तकानि ददाति.
न न, उपायनानि भगिनि,
क्षम्यताम्, उपायनानि.
पुस्तकानि अपि तत्र उपायनं पुस्तकमपि भवति चेत् बहु समीचीनमेव अस्ति, किन्तु सर्वदा तद् न भवति. अतः हा, उपायनम् इत्युक्ते गिफ्ट् इति खलु. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे श्रीनिवास महोदय अग्रिमम् आरम्भं करोति. तत्र कोष्टकं तत्र तस्य अधोभागे तत्र महोदय तत्र तद् एतत् शब्दस्य रूपाणि दत्तमस्ति. केवलं तत्र एकवारं तत्र तद् शब्दस्य पुल्लिङ्गे, नपुंसकलिङ्गे, स्त्रीलिङ्गे अपि, तदनन्तरं तत्र तद् तद् एकवारं पठति वा महोदय.
आं महोदय. उच्चैः पठता लिखता च तत् पुल्लिङ्गे नपुंसकलिङ्गे च तस्मै ताभ्यां तेभ्यः तद् स्त्रीलिङ्गे तस्यै ताभ्यां ताभ्यः
इति. अतः इदानीं महोदय तत्र एतत् कुर्मः, तत्र सः देवः, इदानीं तत्र तस्य चतुर्थीविभक्तिरूपम् एकवारं वदतु महोदय. तस्मै देवाय,
तस्मै देवाय,
देवाय, देवाभ्यां, देवेभ्यः, तस्मै देवाय,
तस्मै देवाय,
ताभ्यां, 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 देवाभ्यां,
ताभ्यां, देवाभ्यां,
तेभ्यः,
तेभ्यः, देवेभ्यः,
देवेभ्यः. तत्र पाटर्न्स् समानमस्ति खलु महोदय, केवलं एकवचने तत्र तस्मै अस्ति, किन्तु देवाय इति वक्तव्यं तावदेव. अस्तु, समीचीनं महोदय. तत्र स्त्रीलिङ्गे अपि एकं करोति वा, तत्र सा किं कुर्मः, तत्र सा हा, सा देवता, सा देवता, सा देवता. अतः तत्र तस्यै देव,
देवता, देवतायै,
देवतायै, हा, ताभ्यां,
ताभ्यां, ताभ्यां, देवताभ्यां, ताभ्यः, देवताभ्यः,
देवताभ्यः. समीचीनं महोदय. हा, अस्तु, धन्यवादः. अग्रे शुभदा भगिनी, तत्र इदानीं तत्र स्त्रीलिङ्गे तत्र कस्, हा, तत्र कस्य इति अस्ति, अतः का नदी,
कस्यै नद्यै काभ्यां नदीभ्यां काभ्यः नदीभ्यः
काभ्यः नदीभ्यः समीचीनं भगिनि. हा अस्तु, इदानीं वंशीसुधा भगिनि, तत्र इदानीं तत्र सर्वपदस्य रूपम् एकवारं पठति वा? तत्र सर्व पुल्लिङ्गे नपुंसकलिङ्गे स्त्रीलिङ्गे
सर्वपुल्लिङ्गे नपुंसकलिङ्गे च सर्वस्मै सर्वाभ्यां सर्वेभ्यः पुल्लिङ्गपदानि. सर्वशब्दस्य स्त्रीलिङ्गे सर्वस्यै सर्वाभ्यां सर्वाभ्यः.
इदानीं तत्र सर्वे सर्वदेवः इति
अस्तु
महोदय, तत् किं भवति?
सर्वदेवताः वा सर्वदेव
सर्वदेवः सर्वदेवः अतः
सर्वस्मै
देवाय
अस्तु सर्वस्मै देवाय
सर्वाभ्यां सर्वाभ्यां
तत्र द्वितीयविभक्ति सर्व सर्वौ भवति वा किल महोदय?
न न न, एतत् विशेषपदं सर्वाभ्यां. हा तत्र इदानीं केवलं चतुर्थीविभक्तिरूपाणि वदामः तावदेव.
ओ अस्तु महोदय.
हा तत्र सर्वस्मै देवाय
सर्वाभ्यां देवाभ्यां सर्वेभ्यः देवेभ्यः
सर्वेभ्यः देवेभ्यः तत्र एकारः बहुवचने अस्ति, सर्वेभ्यः मध्ये अस्ति, देवेभ्यः अपि मध्ये अस्ति. इदानीं स्त्रीलिङ्गे तत्र सर्वस्यै देवता तत्र
सर्वस्यै देवतायै देवतायै सर्वाभ्यां देवताभ्यां सर्वाभ्यः देवताभ्यः
देवताभ्यः. समीचीनं भगिनि, तावदेव. हा तत्र एकवारं नियोजनं कुर्मः इति तावदेव. अस्तु मधुसूदन महोदय, तत्र सर्वस्मै इदानीं तत्र गुरुः इति रूपं किं भवति महोदय?
सर्वस्मै गुरवे
सर्वस्मै गुरवे
सर्वस्मै गुरवे सर्वाभ्यां गुरुभ्यां सर्वेभ्यः गुरुभ्यः
सर्वेभ्यः गुरुभ्यः. समीचीनं महोदय. हा अस्तु, बहु समीचीनम् अस्ति. अस्तु ललिता भगिनी, अग्रे तत्र तुभ्यम् इति अस्ति युष्मत्पदस्य रूपम्, अपि अस्मद् इति पदस्य अपि रूपम् अस्ति, एकवारं पठति वा भगिनि? युष्मत् प्रथमं, तदनन्तरम् अस्मद्. हा
तुभ्यं
युवाभ्यां युवाभ्यां युष्मभ्यां
त्रिषु
लिङ्गेषु भवति. शब्दस्य
अस्मद् मह्यम् आवाभ्याम् अस्मभ्यम्
मह्यम् आवाभ्याम् अस्मभ्यम् अस्मभ्यम्. हा इदानीं तत्र तत्र एतद् वदतु भगिनि, तत्र त्वं कविः इति तत्र किं भवति? तुभ्यं कवये तुभ्यं कवये
कवये युवाभ्यां कविभ्यां
युष्मभ्यं
युष्मभ्यं
कवीभ्यः कविभ्यः
कविभ्यः
तत्र कविभ्याम् एव तत्र तत्र कवये कविभ्यां कविभ्यः ह्रस्वैकारः सर्वत्र कविभ्यां कविभ्यः अतः तत्र तुभ्यं कवये युवाभ्यां कविभ्यः युष्मभ्यं क्षम्यतां युवाभ्यां कविभ्यां युष्मभ्यं कविभ्यः. अस्तु समीचीनं भगिनि. लक्ष्मी भगिनी, इदानीं तत्र तुभ्यम् इति तत्र त्वं नदी इति इदानीं तुभ्यं
तुभ्यं नद्ये ये नदीभ्यां नदीभ्यः तुभ्यं नद्ये
नद्यै
युवाभ्यां नदीभ्यां नदीभ्यः
तत्र नदीभ्यः इदानीं तत्र दीर्घः भवति खलु तत्र हा नदीभ्यां नदीभ्यः इति समीचीनं हा अस्तु इदानीम् अशोभा भगिनी इदानीं तत्र तत्र मह्यम् इति अस्ति तत्र अहं नारी इति अतः मह्यं
तत्र
नारी इदानीं चतुर्थी विभक्ति मह्यं
मह्यं तत्र नारी नदी शब्दवत्
महोदय नदी शब्द भगिनि नदी शब्द
मह्यं नार्यै आवाभ्यां नारीभ्याम् अस्मभ्यं नारीभ्यः
नारीभ्यः समीचीनं भगिनि हा तावदेव अस्तु अतः तत्र अपि तत्र केवलं भवती भवत् शब्दस्त्रीलिङ्गे तत् जानीमः भवत्यै भवतीभ्यां भवतीभ्यः नदी शब्दवत् केवलं तत्र भवत् शब्दः पुल्लिङ्गे नपुंसकलिङ्गे तत् प्रायशः नूतनम् अस्ति तत्र भवते भवद्भ्यां भवद्भ्यां भवद्भ्यः इति भवति तत्र दकारः आगच्छति तत्र भवद्भ्यां भवद्भ्यः इति अस्तु अतः तत्र अस्मिन् विषये प्रश्नः सन्ति वा तत्र केवलं तत्र सर्वनाम पदानां रूपाणि तत्र दत्तमस्ति किञ्चित् अभ्यासं कृतवन्तः तत्र किन्तु अग्रे गच्छामः इति मन्ये अस्तु अग्रे पूर्णेन्दुमहोदय तत्र पञ्चम अभ्यासः आरम्भं कर्तुं शक्नोति वा महोदय
सर्वनामशब्दानां चतुर्थीविभक्तिरूपेण यथोदाहरणं रिक्तस्थानानि पूरयत उदाहरणे सैनिकाः इत्यन्ते तेभ्यः आश्वासनं यच्छत तेभ्यः ते अपि तत्र भवति चतुर्थीविभक्ति एकवचनरूपे ते एकवचन बहुवचनं महोदय
सैनिकाः इति अतः अतः प्रायशः महोदय तत्र एतत् कुर्मश्चेत् बहु उपयोगकरं भवति इति मन्ये तत्र एतादृशवाक्यं वदामः तत्र सैनिकाः किद्यन्ते तत्र ते इति दत्तमस्ति खलु तत्र ते इत्युक्ते सैनिकाः अतः द्वितीयवाक्यम् एतादृशं कुर्मः तत्र तेभ्यः सैनिकेभ्यः आश्वासनं यच्छत इति महोदय अवगतं वा
आश्वासनं इत्युक्ते किं महोदय
आश्वासनं धैर्यं तत्र सर्वं सर्वं समीचीनम् अस्ति चिन्ता मा करोतु अग्रे शुभं भवति वयमेव जयम् अस्माकम् एव जयः इति आश्वासनं कान्सलेशन् न आश्वासनं सर्वं भवति तत्र कान्सलेशन् इति किमपि कन्सिलियेट् इति हा सत्यं
सत्यं
अस्तु भगिनि समीचीनं अस्तु पूर्णेन्दुमहोदय वंशीसुर भगिनी समीचीनं वा
आं महोदय
अस्तु अस्तु पूर्णेन्दुमहोदय इदानीं प्रथमवाक्यः तत्र
प्रथमवाक्यः सेनाः सन्नद्धाः सेनाः
स्त्रीलिङ्गे अस्ति महोदय हा स्त्रीलिङ्गे स्त्रीलिङ्गपदं महोदय हा ताः अतः ताः इति अस्ति
ताः आयुधानि प्रयच्छत अत्र लतायै लताभ्यां लताभ्यः बहुवचने लताभ्यः सेनाभ्यः आयुधानि प्रयच्छत अथवा ताभ्यः आयुधानि प्रयच्छत
ताभ्यः सेनाभ्यः आयुधानि प्रयच्छत समीचीनं महोदय हा समीचीनं महोदय हा तत्र स्पष्टं भवति इति कृत्वा तावदेव अस्तु उषा भगिनी अग्रे
कृष्णार्जुनौ सेनामध्यम् आगतौ तौ तौ इत्युक्ते द्वितीयविभक्ति
न न द्विवचनं वचनं द्विवचनं
क्षम्यतां तौ द्विवचनं अतः ताभ्यां ताभ्याम् अवकाशं प्रयच्छत
हा तत्र ताभ्याम् अपि तत्र कृष्णार्जुनौ इति तस्य पदस्य चतुर्थीभ्याम् कृष्णार्जुनाभ्याम् अवकाशं प्रयच्छत प्रयच्छत समीचीनं भगिनि हा समीचीनम् अग्रे वेदा भगिनि
सा सात्विकी बुद्धिः सात्विकी बुद्धिः सा तस्यै तस्यै सदवकाशं सदवकाशं कल्पयत
हा समीचीनं भगिनि
कल्पयत अर्थं किं महोदय
तत्र अवकाशं ददातु इति तत्र सात्विकी बुद्धिः हा तत्र तादृशबुद्धि यद् वदति तत् करोतु इति तत् अनुसरतु इति अर्थे तत्र अवकाशं सदवकाशं कल्पयत तत्र गिव् गिव् इट् अ हियरिङ्ग् इति गिव् गिव् इट् पर्मिशन् तादृश अर्थे अवकाशं ददातु गिव् इट् अ चान्स् किन्तु भगिनी तत्र एतत् कुर्मः तत्र सा इति तस्यै अस्ति इदानीं तत्र सात्विकी बुद्धिः तस्यापि चतुर्थी विभक्तिरूपं वक्तुं शक्नोति वा तत्र क्षम्यतां भगिनि हा बुद्धिः मतिशब्दवत् अस्ति किन्तु सात्विकी नदी शब्दवत् अस्ति क्षम्यतां मम दोषः नद्यै हा सात्विक्यै तदेव रूपं बुद्धि अपि तत् वक्तुं शक्नुमः बुद्ध्यै तस्यै हा इदानीं वाक्यं किं भवति तस्यै
तस्यै तस्यै तस्यै सात्विक्यै
बुद्ध्यै सदवकाशं
कल्पयत
इति समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे रघुवीरानन्दमहोदय
एषः संसाररूपः एषः संसाररूपः सप्तः अलं महोदय तत्
प्रायश अलम् अलम् अलम्
अलम्
इति
एषः असङ्गशस्त्रम् अलं महोदय एषः तु एकवचनं महोदय
अतः तत्र चतुर्थी विभक्ति एतस्मै एषः इति अस्ति अतः एतस्मै
एषः
एतस्मै
सः अश्वत्थः एतस्मै अशङ्गशस्त्रम् अलम्
हा इदानीं तत्र मध्ये तत्र संसाररूपः अश्वत्थः तस्यापि चतुर्थी विभक्तिरूपं वदामश्चेत् स्पष्टं भवति
महोदय प्रश्नमस्ति अत्र ददाति यच्छत् इति भान्ति अलं शब्द डजन्ट् बिलाङ्ग् टु दट् केटगरि
समीचीनप्रश्नः भगिनि तत्र अलं यत्र अस्ति तत्र किं भवति एतावत् प्रायशः अभ्यासपुस्तके अलम् इति सर्वे दृष्टवन्तः इति मन्ये तत्र किं भवति अलम् इति पदस्य कोऽपि स्मरति वा तृतीया विभक्ति अलम् इति तत्र रोदनेन अलम् इति तादृश भवति किन्तु तत्र अलम् इति प्रयोगे चतुर्थी विभक्ति अपि भवति अतः तत्र अत्र प्रायशः तादृशरूपं अत्र भवति किन्तु एतावत् न वयं न पठितवन्तः किन्तु अत्र चतुर्थी अपि भवति इति समीचीनं भगिनि, समीचीनः प्रश्नः. अस्तु रघुवीरानन्दमहोदय,
तत्र एतस्मै संसार
रूपाय
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 अश्वत्थाय देवः देवाय, अतः
आं महोदय एतस्मै संसाररूपाय अश्वत्थाय
असङ्गशस्त्रं
किं महोदय तदनन्तरम्
असङ्गशस्त्रं
अलं अलम्
अलम् इति तत्र अर्थं मया न अवगम्यते, यदि अन्य कोऽपि वक्तुम् इच्छति चेत्. अस्ति वा महोदय, जानाति वा?
अश्वत्थवृक्षं यदस्ति महोदय तद् संसाररूपम् इति भगवद्गीता वा कठोपनिषदि वा इति दत्तं महोदय.
उपमानमस्ति, उपमानमस्ति, अस्तु सत्यं, संसाररूपः, संसार इव अश्वत्थः, संसार इव अश्वत्थः. किन्तु तत्र एतस्मै किन्तु एतस्मै असङ्गशस्त्रम् अलम् इति तत्र अस्तु 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 द्रष्टव्यं, किन्तु तत्र पञ्चदश अध्याये अस्ति इति, अस्तु तद् पश्यामः. अस्तु अस्तु महोदय, धन्यवादः.
प्रथमश्लोकमेव.
ओ अस्तु अस्तु अस्तु, धन्यवादः महोदय.
अश्वत्थमेन सुविरुढमूलम् असङ्गशस्त्रेण दृढेन छित्वा, तत् तृतीय श्लोकः.
धन्यवादः महोदय. अस्तु अग्रे
प्रश्नः. अलम् 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 इति सर्वे उच्चारणं कुर्वन्तः, परन्तु तत्र अळम् इति उच्चारणमपि केचन कुर्वन्ति. अळम् अथवा अलम्?
मया तु केवलम् अलम् इति एव श्रुतं महोदय, अतः अन्यत् मया कदापि न श्रुतम्, अलम् इति कदापि न श्रुतम्. तत्र दक्षिणभारते वयं दक्षिणभारते तत्र लकारः केवलं तत्र काळी इति तत्र ल इति अहं श्रुतवान्, किन्तु तत्र अलम् इति तद् न श्रुतवान् महोदय, न जानामि अतः. अस्तु शुभा भगिनि, वदतु भगिनि.
सर्वे फलम् इच्छन्ति, कः कस्मै ददानि?
तत्र इदानीं तत्र किमपि अन्यत् किमपि न आयोजितुं शक्नुमः. कस्मै ददानि, ददानि इति लकारः कः? लोट् लकारः, लोट् लकारः पुरुषः, उत्तमपुरुषः एकवचनं. समीचीनं.
प्रायः तत्र सर्वेभ्यः फलं ददातु इति
उत्तरं भवति. सत्यं भगिनि, सत्यं. कस्मै ददानि सर्वेभ्यः फलं, फलानि ददातु इति. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे श्रीनिवास महोदय.
एकः प्रश्नः. सर्वे इति बहुवचनं खलु, सो कः?
सर्वस्मै इति न, तत्र सर्वेभ्यः, 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 सर्वेभ्यः. सत्यं सत्यं भगिनि, सत्यं.
कः कः केभ्यः, रैट्?
न न, तत्र कः इति तु कस्मै इति एव अस्ति, कः तु एकवचने अस्ति, तत्र हू शुड् ऐ गिव् इट् टु इति, कस्मै ददानि, किन्तु प्रायशः उत्तरं तत्र भवति गिव् इट् टु आल् इति, अतः सर्वेभ्यः ददातु इति. अतः प्रश्ने तु एकवचने एव, उत्तरे बहुवचनं भवति इति चिन्तनं. शुभदा भगिनी, समीचीनं वा? अस्तु अस्तु भगिनि, अस्तु. श्रीनिवास महोदय अग्रे.
अहं पुस्तकप्रियः.
तस्य पूर्वं महोदय, सर्वे सर्वे
सर्वे सर्वे धर्मपरायणः,
परायणाः,
सर्वेभ्यः सहकारं प्रयच्छामः.
सर्वेभ्यः सहकारं प्रयच्छामः. समीचीनं महोदय. अस्तु, अग्रे अन्तिमं तत्र शुभदा भगिनी.
अहं पुस्तकप्रियः, मह्यं पुस्तकं यच्छत.
मह्यं पुस्तकं यच्छत. समीचीनं भगिनी. अस्तु, इदानीं तत्र प्रायशः तत्र अग्रे अपि गन्तुं शक्नुमः, किन्तु अहम् एतदपि चिन्तितवान् तत्र.
मह्यं पुस्तकं यच्छत, नाट् मया.
मह्यमेव, मह्यमेव, मह्यं, मह्यम् इति, मह्यं, मह्यम् इति एव. मह्यं समी सत्यं भगिनि, मह्यम् इति एव सत्यं. मह्यम् इति. अस्तु, तत्र
महोदय, एकः प्रश्नः. तत्र सर्वे अस्ति षष्टमबिन्दे, सर्वे इति स्त्रीलिङ्गपदं द्विवचनमपि भवितुम् अर्हति किल महोदय? परन्तु तत्र धर्मपरायणाः इति उक्तवान् अस्तु, तत्र
पुल्लिङ्गशब्दः अस्ति.
अस्तु 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 महोदय, यद्यपि द्वयोः रूपं समानम्.
नो चेत् तत्र अन्यत् वक्तव्यमस्ति. सत्यं भगिनि, सत्यं भगिनि. अस्तु, इदानीं तत्र अहं चिन्तितवान् तत्र प्रायशः एकां कथां तत्र चतुर्थीविभक्तेः प्रयोगः तत् उपयुज्य तत्र कथां पठामः इति. तत्र प्रायशः चाट् मध्ये यदि प्रेषयामि तत् भवति इति मन्ये. एकनिमिष पश्यामि तत्र. तत् सर्वे प्राप्तवन्तः वा, दृष्टवन्तः वा? तत्र चाट् मध्ये एकं लिङ्क् अस्ति. अतः अतः पृच्छामि कस्मै प्रेषितव्यम् इति.
महोदय कृपया ईमेल् द्वारा,
जीमेल् द्वारा. अस्तु, अपि रघुवीरानन्दमहोदय. अस्तु, एकनिमिषः अहं प्रेषयामि, एकनिमिषः. एकनिमिष. अपि शोभा भगिनी. अस्तु, अस्तु, एकनिमिषं महोदय. इदानीं प्रेषितं, प्रायशः आगतं तत्र इति मन्ये. शोभा भगिनी प्राप्तवती वा?
न महोदय, इदानीं पर्यन्तं
न. अस्तु, आगतम्. अस्तु, अत्र गूगल् लैट्निङ्ग् स्पीड् अस्ति न वा इति परीक्षा भवति. अस्तु, अतः सर्वेषां पार्श्वे अस्ति इति मन्ये. तत्र धानम् इति
प्राप्तवती महोदय.
लक्ष्मी भगिनी प्राप्तवती वा? न प्राप्तवती. न प्राप्तवती. अस्तु भगिनि, एकनिमिषः, तत्र ईमेल् द्वारा प्रेषयामि. अहं न ज्ञातवान् तत्र. न, तत्र चाट् मध्ये प्रेषितवान् महोदय. तत्र चाट् मध्ये भवान् नास्ति वा? अस्तु अस्तु, एकनिमिष, तत्र एकनिमिष. लक्ष्मी भगिनी तत्र, लक्ष्मी सुब्रह्मण्य, लक्ष्मी एकनिमिष भगिनी तत्र. तत्र लक्ष्मी सि हेच् इति न भवति खलु भगिनि? तत्र एल् ए एल् ए के एस् एच्. एकनिमिषं. मधुसूदन महोदय, भवतः ईमेल् किमस्ति? अहं लिखितवान् भगिनि. लिखितवान् भगिनि, लिखितवान् भगिनि. मधुसूदन महोदय, भवतः ईमेल् किमस्ति?
मधु बङ्गानि एट् जिमेल् डाट् काम्.
मधु
बङ्गानि, बि बि ओ एन्
जि ए एन् जि ए
एन् ऐ एन् इस्
मधु बङ्गानि. एम् ए डि हेच् यु खलु?
आम् महोदय,
एकपदमेव, मधु बोङ्गानि, नो स्पेसस्.
notespace@gmail.com.
अस्तु महोदय, इदानीं प्रेषितवान्.
धन्यवादः.
अहं प्राप्तवती.
अस्तु भगिनि, समीचीनं. अस्तु तर्हि, अतः तत्र कथा अस्ति ध्यानम् इति. हा, प्राप्तवती, समीचीनम्. अस्तु, मधुसूदन महोदय प्राप्तवान् वा, अथवा तत्र प्रायशः श्रीनिवास महोदय न प्राप्तवान् वा अत्र? हा, अस्तु, अत्र तत् किं कुर्मः,
अहं फार्वर्ड् करोमि महोदय श्रीनिवास महोदय कृते.
अस्तु 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 महोदय, धन्यवादः. अस्तु तर्हि, तत्र वयं कुत्र स्मः? तत्र शुभदा भगिनी अपि, श्रीनिवास महोदय. हा, वंशीसुधा भगिनी, भवती आरम्भं करोति वा?
कथायाः नाम अस्ति दानम्. कश्चन राजा स्वस्य गुरोः माहात्म्यं श्लाघमानः सहर्षं गुरवे दुकूलवस्त्राणि उपायनत्वेन समर्पितवान्. दुकूलवस्त्राणि उपायनत्वेन, अहं न जानामि दुकूलं किमस्ति महोदय.
दुकूलम् इत्युक्ते तत्र बहु समीचीनं वस्त्रम् इति.
ओवन् फाब्रिक्, ओवन् सिल्क्,
तादृश सिल्क् इति, तादृश उत्तम उत्तम वस्त्रम् इति. ओवन् उपायनम् इत्युक्ते गिफ्ट् इति.
उपायनमत्वे, अस्तु महोदय,
उपायनत्वेन इति उपायनरूपेण
रूपेण समर्पितवान्
समर्पितवान् इति.
अनेन प्रमुदितः गुरुः तानि वस्त्राणि परिगृह्य गृहं प्रति प्रस्थितवान्. मध्ये मार्गः तेन कश्चन भिक्षुकः दृष्टः. तस्य निर्गतिकावस्थायाः दर्शनात् गुरोः मनसि महती करुणा उत्पन्ना. अतः सः स्वनिकटे स्थितानि राज्ञा दत्तानि वस्त्राणि तस्मै दत्त्वा अग्रे गतवान्.
समीचीनं भगिनि. अस्तु, तत्र एकवारं कथां पठामः, तदनन्तरं पङ्क्तिशः पश्यामः. ललिता भगिनी अग्रे. धन्यवादः भगिनि.
धन्यवादः महोदय.
ललिता भगिनी अग्रे पठति वा? अस्तु, लक्ष्मी भगिनी अग्रे पठति वा?
परेद्यवी तनैव मार्गेण गच्छन् राजा गुरवे उपायनि कृतानि.
कः पठति इदानीं?
भिक्षुकेन
एकनिमिष एकनिमिष. अस्तु, अस्तु, ललिता भगिनी पठतु भगिनी. पठतु भगिनी.
परेद्यवी तेनैव मार्गेण गच्छन् राजा गुरवे उपायनि कृतानि दुकूलवस्त्राणि भिक्षुकेन परिधृतानि दृष्टवान्. मया यत् गुरवे दत्तं तत् भिक्षुकस्य शरीरे दृश्यते. एतस्य तात्पर्यं यत् मया दत्तं गुरुः भिक्षुकाय दत्तवान् इति. एतेन गुरुः मम अपमानं कृतवान् इव इति चिन्तयन् सः अतीव क्रुद्धः सञ्जातः.
धन्यवादः भगिनि. अस्तु, लक्ष्मी भगिनी अग्रे. अस्तु, प्रायश म्यूट् मध्ये अस्ति इति मन्ये. अस्तु, शोभा भगिनी अग्रे.
कतिपयदिनानाम् अनन्तरं राजा गुरवे उपायनत्वेन सुवर्णकङ्कणं प्रदत्तवान्. गुरुः तत् सुवर्णकङ्कणं स्वीकृत्य आस्थानात् तु निर्गतः. तेन ज्ञातं यत् राजास्थानस्य उद्योगी कश्चित् पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवति इति. अतः सः तत् सुवर्णकङ्कणं राजास्थानस्य उद्योगिने अयच्छत्.
समीचीनं भगिनि, धन्यवादः. पूर्णेन्दु महोदय अग्रे.
महोदय, अहं पठामि वा?
पठति. अस्तु भगिनि, अस्तु, लक्ष्मी भगिनी पठतु, तदनन्तरं पूर्णेन्दु महोदय. तदनन्तरं पूर्णेन्दु महोदय पठतु. अस्तु, लक्ष्मी भगिनी पठतु भगिनि.
एतं विषयं ज्ञात्वा राजा गुरुम् आहूय अवदत् भवद्विषयिण्या गौरवभावनया मया भवते उपायनानि दत्तानि, किन्तु भवान् तानि यथेष्टम् अन्येभ्यः वितरन् अस्ति. किम् एतत् उचितं, किम् एतत् उचितम् अस्ति?
वदतु भगिनि, तत्र प्रायशः तत्र अङ्गीकारः इति तावत् पर्यन्तं पठतु भगिनि.
राजन् दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया
स्वामित्वत्यागस्य
अङ्गीकारः. अग्रे पठामि.
अङ्गीकारः. धन्यवादः भगिनि, तावदेव. धन्यवादः भगिनि. पूर्णेन्द्र महोदय अग्रे.
परन्तु
अधोभागे तत्र अन्तिमवाक्यं न, तस्य उपरि.
परन्तु अधुनापि कृतस्य दानस्य विषयं स्मरन् भवान् तद्विषये मां पृच्छन् अस्ति इत्यस्य अयमेव अर्थः यत् दानानिमपि तद्वस्तु आत्मनः एव इति भवान् भावयन् अस्ति इति. एवं तर्हि भवान् दानफलं न प्राप्स्यति. अस्तु, तावत् भवान् पृच्छन् अस्ति इत्यतः वदामि. वस्तुतः भवता मह्यं प्रदत्तानां वस्तूनाम् आवश्यकता मम यावत् स्यात् ततोपि अधिकं तेषामेव अस्ति. अतः एव अहं तानि वस्तूनि तेभ्यः दत्तवान् अस्मि. अनेन भवन्तं प्रति धिक्कारः प्रकटनीयः इति तु मम उद्देश्यः नास्ति इति.
अग्रे
आम्. गुरोः प्रभावजनकवचनोभिः राजा स्वदोषं विज्ञाय गुरुं क्षमां प्रार्थयत. दानस्य महत्तां च अजानात्.
अजानात्, समीचीनं महोदय. अस्तु, धन्यवादः. हा अस्तु, अतः तत्र एकवारं तत्र कथस्य पठनं कृतम्. इदानीं तत्र पङ्क्तिशः परिशीलयामः किं किम् अस्ति इति. तत्र उषा भगिनी आरम्भं करोति वा तत्र प्रथमपरिच्छेदः?
आं महोदय. कश्चन राजा स्वस्य गुरोः
तत्र यः न वदति कृपया तत्र म्यूट् मध्ये तिष्ठन्ति चेत् समीचीनं भवति. वदतु भगिनि.
कश्चन राजा स्वस्य गुरोः माहात्म्यं श्लाघमानः सहर्षं गुरवे दुकूलवस्त्राणि उपायनत्वेन समर्पितवान्.
तत्र कश्चन राजा
स्वस्य गुरोः माहात्म्यं
स्वस्य तत्र स्वम् इति पदमस्ति, तस्य षष्टि स्वस्य
गुरोः
इति विभक्ति का तत्र?
गुरुः गुरोः षष्टी अपि पञ्चमी अपि षष्टि अस्ति. अत्र षष्टि अस्ति, स्वस्य इति षष्टिविभक्ति अस्ति, अतः गुरोः अपि षष्टि.
समीचीनं भगिनि. अपि तत्र गुरोः किं, तत्र स्वस्य गुरोः माहात्म्यं, कस्य माहात्म्यं? स्वस्य गुरोः माहात्म्यं. भगिनी सम्यक्तया न श्रूयते भगिनि. तत्र यदि यः अथवा ये न वदन्ति कृपया म्यूट् मध्ये तिष्ठन्तु. धन्यवादः.
किमपि ध्वनि आगच्छति महोदय.
अस्तु सत्यं भगिनि, तत्र न जानामि कुतः इति. इदानीं प्रायश नास्ति. ओ अस्तु, अस्तु भगिनि अग्रे पठतु भगिनि.
सहर्षं गुरवे दुकूलवस्त्राणि उपायनत्वेन समर्पितवान्.
तत्र किं, तत्र श्लाघमानः सहर्षं समर्पितवान्. किं समर्पितवान्? दुकूलवस्त्राणि समर्पितवान्. कस्मै समर्पितवान्? गुरवे. तत्र समर्पणं भवति चेत् चतुर्थी विभक्ति भवति. गुरवे, गुरवे समर्पितवान् दुकूलवस्त्राणि. किं भगिनि? उपायनत्वेन, उपायनरूपेण इत्युक्ते दुकूलवस्त्राणि एव उपायनानि इति. तत्र उपायनानि कानि? दुकूलवस्त्राणि एव उपायनानि. कस्मै दत्तवान्? समर्पितवान् गुरवे समर्पितवान्. तत्र किमर्थं? तत्र गुरोः माहात्म्यं, तस्य श्लाघनं कर्तुं. तत्र सः महात्मा इति तद् प्रदर्शितुम् एषः राजा गुरवे दुकूलवस्त्राणि समर्पितवान्. इदानीम् अग्रे.
अनेन प्रमुदितः गुरुः तानि वस्त्राणि परिगृह्य गृहं प्रति प्रस्थितवान्. गुरुः तत् वस्त्राणि स्वीकृत्य
गृहं प्रति प्रस्थितवान्. तत्र गृहं प्रति गतवान्. अस्तु, तत्र प्रमोदितः इत्युक्ते प्रमोदः अनुभवति. प्रमोदः इत्युक्ते आनन्दः, हर्षः इति. प्रमुदितः, प्रमुदितः गुरुः, तत्र विशेषणरूपं भवति. भगिनि तत्र अनेन इत्युक्ते केन?
अनेन
किन्तु केन, केन तत्र अनेन इत्युक्ते?
उपायनत्वेन दुकूलवस्त्राणि आफ्टर् गेटिङ्ग्.
तत्र समर्पितवान्, तत्र समर्पणेन अथवा तत्र उपायनेन इति, तदपि उपायनेन प्रमुदितः गुरुः अपि वक्तुं शक्नुमः. तत्र अन्वयः तत्र अस्ति.
आनन्देन स्वीकृत्य वस्त्राणि गुरुः.
किन्तु तत्र आनन्देन इति, तत्र अनेन इति भावं न सूचयति. तत् कारणं सूचयति, तेन प्रमुदितः भवति. तत्र अनेन इत्युक्ते तत्र तस्मात् इति, तत्र एतस्मात् इति वक्तुं शक्नुमः. तत्र कारणं सूचयति, किमपि भवति एतस्मात् प्रमुदितः. अतः तत्र अनेन अथवा एतेन इति, तत्र प्रायशः उपायनेन प्रमुदितः.
अयं शब्दस्य
सत्यं, सत्यं भगिनि, किन्तु सत्यं रूपं तदेव, किन्तु अर्थः कः इति अपि वक्तव्यं खलु. उपायनेन इति वक्तुं शक्नुमः. सत्यं भगिनि.
एकः प्रश्नः महोदय, तत्र पूर्वस्मिन् वाक्ये माहात्म्यं श्लाघमानः सहर्षं, तत्र कर्मपदानि भवन्ति, श्लाघमानः कर्मपदरूपे अस्ति वा तत्र महोदय?
तत्र केवलं तत्र अत्र समर्पितवान् इति अस्ति. तत्र कर्मपदं केवलं, तत्र कर्मपदं केवलम् अस्ति दुकूलवस्त्राणि इति.
तत्र माहात्म्यं सहर्ष,
गुरोः माहात्म्यं श्लाघमानः,
माहात्म्यं
श्लाघमानः इति, तत्र माहात्म्यं, तत्र तत्र माहात्म्यम् अपि समर्पितवान्, तत्र सम्बन्धः नास्ति भगिनि. तत्र केवलं
महोदय, तत्र समर्पितवान् नास्ति, केवलं माहात्म्यं, माहात्म्यं श्लाघमानः सः.
तयोः मध्ये सम्बन्धः अस्ति. सत्यं, किं श्लाघमानः तत्र माहात्म्यं श्लाघमानः इति.
तत्र किं रूपं किम् अस्ति महोदय श्लाघमानः? तत्र शानच् तु अस्ति किन्तु तत् वाक्ये तत्र
राजस्य इति न राज्ञः, राज्ञः इति भवति, महाराजस्य इति स्वीकुर्मः. तस्य भावः भगिनि तत्र सः पूरितः अस्ति, तस्मिन् एषः भावः अस्ति, मम गुरुः महान् अस्ति इति तस्य श्लाघनं करणीयम् इति. तत्र श्लाघमानः अस्ति राजा इति पदस्य विशेषणम्.
अस्तु महोदय, अर्थं जानामि तत्र प्रयोगस्य.
राजा श्लाघमानः राजा, कस्य श्लाघमानः कस्य श्लाघनं कर्तुम् इच्छति?
अस्तु महोदय.
अतः गुरोः माहात्म्यं, स्वस्य गुरोः माहात्म्यं श्लाघमानः राजा.
धन्यवादः.
इदानीं समीचीनं भगिनि. तत्र तत्र कीदृशः राजा इति तस्मिन् अन्तर्भूतः भवति. अतः तत्र श्लाघमानः राजा, तदनन्तरं श्लाघमानः तस्य विवरणं कर्तुम् इच्छामश्चेत् स्वस्य गुरोः माहात्म्यं श्लाघमानः
कश्चन
राजा. सर्वं सर्वं तत्र श्लाघमानः. अतः किञ्चित् परिवर्तनं कुर्मश्चेत् तत्र स्वस्य गुरोः माहात्म्यं श्लाघमानः कश्चन राजा सहर्षम् अथवा गुरवे दुकूलवस्त्राणि उपायनत्वेन सहर्षं समर्पितवान् इति. अनेन उपायनेन प्रमुदितः गुरुः तानि वस्त्राणि परिगृह्य स्वीकृत्य गृहं प्रति प्रस्थितवान्.
परि उपसर्गपूर्वकं गृह्य, परिगृह्य ल्यप्
गृह्णाति. सत्यं सत्यं, परिगृह्य स्वीकृत्य तादृश ल्यबन्तपदं
स्वीकृत्य गृहं प्रति प्रस्थितवान्.
प्र उपसर्गः सत्यं भगिनि. सत्यं भगिनि.
मार्गं पठामि वा महोदय?
पठतु भगिनि.
मध्यमार्गं तेन कश्चन भिक्षुकः दृष्टः. कश्चन
मार्गमध्ये अथवा मध्ये मार्गं
भिक्षुकः
सः कश्चन कञ्चन तत्र प्रायशः तत्र कश्चन अस्ति चेत् प्रथमविभक्तिरूपम् अस्ति कञ्चन इति भवति. कः भवति कम् द्वितीयविभक्तिरूपं कञ्चन भिक्षुकं पश्यति अथवा तेन कश्चन भिक्षुकः दृष्टः. तस्य
निर्गतिकावस्थायाः दर्शनात् गुरोः मनसि महती करुणा उत्पन्ना.
इदानीं तत्र एतत् कुर्मः भगिनि. तत्र महती करुणा उत्पन्ना, तत्र तद् प्रथमं
महती स्त्रीलिङ्गे अस्ति, करुणा अपि स्त्रीलिङ्गे, उत्पन्ना अपि स्त्रीलिङ्गे.
तत्र सम्बन्धः तयोः मध्ये
विशेषण.
अस्तु तयोः न तत्र
मनसि
तेषां मध्ये. तत्र तत्र किम् अस्ति? करुणा इति अस्ति. कीदृशी करुणा? महती करुणा. अपि एषा करुणा उत्पन्ना, इदानीमेव उत्पन्ना करुणा. अतः महती करुणा उत्पन्ना अस्ति. कस्य मनसि?
गुरोः मनसि.
गुरोः मनसि. गुरोः इति विभक्ति का तत्र?
गुरोः
षष्टि.
षष्टि मनसि सप्तमी.
मनसि सप्तमी. तस्य पूर्वं दर्शनात्.
दर्शनात् पञ्चमी.
पञ्चमी. कस्मात् कारणात् गुरोः मनसि महती करुणा उत्पन्ना इति इदानीं पश्यामः. दर्शनात् इति कस्य दर्शनात्?
भिक्षुकस्य दर्शनात्
न न न न न हा भिक्षुकस्य दर्शनात् न हा तत्र इदानीं तस्य पूर्वं यदस्ति तस्य तत् पश्यामः इदानीं तत्र प्रथमपदमस्ति तस्य इति कस्य अत्र
तस्य
भिक्षुकस्य इदानीम् अग्रिमपदमस्ति निर्गतिका अवस्थायाः निर्गतिका अवस्थायाः अवस्था अवस्था इत्युक्ते परिस्थितिः अवस्थायाः षष्टि निर्गतिका विना गति गतिः विना तत्र अन्यत् तस्य स्थितिः तादृशी अस्ति निर्गतिका निर्गतिका अवस्थायाः दर्शनात् अतः कारणं किम् अस्ति कस्मात् कारणात् भिक्षुकस्य दर्शनेन अथवा अन्यस्य दर्शनेन न न दर्शनात् इति पदं कस्य दर्शनं अथवा
तस्य निर्गतिका अवस्थायाः दर्शनात्
हा समीचीनं भगिनि हा दर्शनात् गुरोः मनसि महती करुणा उत्पन्ना हा अग्रिमम्
अतः सः स्वनिकटे स्थितानि राज्ञा दत्तानि वस्त्राणि तस्मै दत्त्वा अग्रे गतवान्
हा अस्तु इदानीं तत्र तत्र एतत् कुर्मः भगिनि तत्र अतः तदनन्तरं सः सः इत्युक्ते कः
गुरुः
अतः सः गुरुः
स्वनिकटे
इत्युक्ते स्वस्य समीपे
स्वस्य समीपे अस्ति वस्त्राणि राज्ञा दत्तानि यदि तद् वस्त्रं राज्ञा
वस्त्राणि इदानीं तत् समीचीनं भगिनि तत्र वस्त्राणि सन्ति कीदृशी कीदृशानि वस्त्राणि दत्तानि वस्त्राणि किन्तु राज्ञा दत्तानि इत्युक्ते केन दत्तानि केन दत्तानि वस्त्राणि राज्ञा दत्तानि वस्त्राणि कुत्र सन्ति ते स्वनिकटे स्थितानि वस्त्राणि अतः तत्र सर्वं विशेषणं भवति वस्त्राणि इति पदस्य स्वनिकटे स्थितानि राज्ञा दत्तानि तादृशानि वस्त्राणि तादृशानि वस्त्राणि सः गुरुः किं कृतवान्
तस्मै
इदानीं भिक्षुकः इति अस्ति तस्य चतुर्थीरूपं किम् अस्ति तस्मै भिक्षुकाय
दत्त्वा अग्रे गतवान्
समीचीनं भगिनि धन्यवादः अस्तु अग्रे अग्रे तत्र शुभा भगिनी प्रयत्नं करोति वा अग्रिमपरिच्छेदे
आं महोदय परेद्यवि तेनैव मार्गेण गच्छन् राजा गुरवे उपायनीकृतानि दुकूलवस्त्राणि भिक्षुकेण परिधृतानि दृष्टवान् परेद्यवि इत्युक्ते किं महोदय
तत्र अग्रिमे दिने अग्रिमे दिने अग्रिमे दिने
अग्रिमे दिने
अव्ययम् अस्ति तत्
राजा दृष्टवान् कीदृशराजा दृष्टवान् तेनैव मार्गेण गच्छन् राजा दृष्टवान् किं दृष्टवान् भिक्षुकेण परिधृतानि दृष्टवान् कीदृश
तत्र अथवा तत् समीचीनं भगिनि तत्र अथवा दुकूलवस्त्राणि दृष्टवान्
दुकूलवस्त्राणि दृष्टवान्
कीदृशानि दुकूलवस्त्राणि
कीदृशानि दुकूलवस्त्राणि गुरवे उपायनीकृतानि दुकूलवस्त्राणि भिक्षुकेण परिधृतानि दृष्टवान्
तत्र वस्त्राणि दुकूलवस्त्राणि सन्ति तस्य विवरणं भवति गुरवे उपायनीकृतानि वस्त्राणि अपि भिक्षुकेन परिधृतानि सः तं तानि वस्त्राणि धरति अतः भिक्षुकेन परिधृतानि गुरवे उपायनीकृतानि दुकूलवस्त्राणि दृष्टवान् अपि गच्छन् इति तद् जानीमः तत्र शत्रन्तरूपम् सः गच्छति, गच्छन् समये सः पश्यति, अतः तत्र गच्छन् दृष्टवान् इति अस्ति. तत्र क्रियाद्वयं युगपत् भवति, गच्छति गच्छन् समये पश्यति, अतः गच्छन् दृष्टवान् इति अस्ति. हा तत्र तेनैव
तर्हि कदा दृष्टवान् इति प्रष्टव्यम् अत्र. गच्छन् राजा दृष्टवान् इति.
हा तेनैव मार्गेण, तेन वा येन मार्गेण गुरुः गतवान् तेनैव मार्गेण राजा अपि गच्छति, गच्छन् समये पश्यति. कदा कदा एतत् सर्वं भवति? परेद्यवि इत्युक्ते अग्रिमे दिने,
अग्रिमे दिने,
अग्रिमे दिने इति. समीचीनं भगिनि. हा अग्रे.
मया यत् गुरवे दत्तं तत् भिक्षुकस्य शरीरे दृश्यते. किं दृश्यते? गुरवे दत्तं.
हा तत्र भगिनी एतदस्ति, तत्र यः सः इति वाक्यस्य रूपम् अस्ति. हा अतः यत् तत् इति अस्ति, नपुंसकलिङ्गे अस्ति, तावदेव. यत् मया गुरवे दत्तं हा तत् भिक्षुकस्य शरीरे दृश्यते.
एतस्य तात्पर्यं यत् मया दत्तं गुरुः भिक्षुकाय दत्तवान् इति.
हा तत्र अपि प्रायशः भगिनी तत्र एतस्य तात्पर्यं यत् मया दत्तं त गुरुः तत् भिक्षुकाय दत्तवान् इति. प्रायशः तत्र तत् इति स्थापयंश्चेत् स्पष्टं भवति इति मन्ये.
मया दत्तं गुरुः
यत् मया दत्तं यत् मया दत्तं तत् गुरुः भिक्षुकाय दत्तवान् इति. हा तत्र तत् स्थापयामश्चेत् सुलभं भवति अवगमनार्थम्.
एतेन गुरुः मम अपमानं कृतवान् इव चिन्तयन् सः अतीव क्रुद्धः सञ्जातः. एतेन इत्युक्ते तस्मात् कारणात् इति.
हा तत्र गुरुः एतत् कृतवान् अतः
अतः अपमानं कृतवान् इति.
हा इति भाति
इति सः चिन्तयित्वा क्रुद्धः
क्रुद्ध. हा तत्रापि चिन्तयन् इति शत्रुन्तरूपं, गच्छन् इति यथा अस्ति, चिन्ता अवसरे एव सः क्रुद्धः अपि सः क्रुद्यति, अतः सः चिन्तयन् क्रुद्धः सञ्जातः, अतीव क्रुद्धः सञ्जातः. हा तत्र सः किं भवति? अतीव क्रुद्धः सञ्जातः, तत् सर्वं विशेषणं भवति. हा चिन्तयन्नपि विशेषणं भवति. सः इति सः राजा अतीव क्रुद्धः सञ्जातः इति. हा समीचीनम्. अस्तु अग्रे शुभदा भगिनी पठति वा?
आं महोदय.
कतिपयदिनानाम् अनन्तरम् इति.
एकनिमेषं, बै मिस्टेक् ऐ क्लोस्ड् इट्.
ओ अस्तु 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 भगिनि. हा
जस्ट् अ मिनिट्. ओके. कतिपयदिनानाम् अनन्तरं राजा गुरवे उपायनत्वेन सुवर्णकङ्कणं प्रदत्तवान्. कतिपयदिनानाम् अनन्तरम्
इत्युक्ते न जानीमः तत्र कतिपयदिनाः, दिनद्वयं वा पञ्चदिनानन्तरं वा, कतिपयदिनानाम् अनन्तरं
राजा गुरवे उपायनत्वेन सुवर्णकङ्कणं प्रदत्तवान्.
तत्र गुरवे इति विभक्ति का?
चतुर्थी.
चतुर्थी. हा प्रदत्तवान् इति अस्ति.
गुरुः तत् सुवर्णकङ्कणं स्वीकृत्य आस्थानात् तु निर्गतः.
तत्र आस्थानात् इति तत्र पञ्चमी, तत्र ततः बहिः आगतवान्. तत्र तत् आस्थानात् तु निर्गतः.
तेन ज्ञातं यत्
तेन ज्ञातं यत् राजास्थानस्य उद्योगी कश्चित् पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवति इति.
सः किं जानाति अथवा तेन किं ज्ञातम्?
तेन ज्ञातं यत् राजास्थानस्य उद्योगी कश्चित् पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवति इति.
इति सः जानाति, गुरुः जानाति तत्र राज्ञः, तत्र अथवा महाराजः अस्ति चेत् महाराजस्य, अथवा राजा अस्ति चेत् राज्ञः, राज्ञः आस्थानस्य उद्योगी, राजास्थानस्य उद्योगी कश्चित् अस्ति, सः पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवति इति. इति सः जानाति, सः गुरुः जानाति. अतः
सः तत् सुवर्णकङ्कणं राजास्थानस्य उद्योगिने अयच्छत्.
तत्र उद्योगिने इति पदस्य एकवचन, किन्तु तत् अत्र गीतासोपने प्रथमभागे नास्ति, तत्र उद्योगी इति प्रथमविभक्तिरूपम् अस्ति, किन्तु हलन्तपदम् अस्ति उद्योगिन् इति. किन्तु पुल्लिङ्गे अस्ति एतत्, हा उद्योगी इति, हा कश्चन उद्योगी तस्मै उद्योगिने अयच्छत् इति. अयच्छत्, समीचीनं भगिनि, धन्यवादः.
प्रश्नः अस्ति महोदय, कतिपयदिनानाम् अनन्तरं राजा गुरवे उपायनत्वेन स्वर्णकङ्कणं प्रदत्तवान् अपि च दत्तवान् अपि च मध्ये
तत्र भेदः अस्ति, किञ्चित् भेदः अस्ति भगिनि. तत्र ददाति इत्युक्ते गिव् इति अस्ति, किन्तु प्रदत्तवान् इत्युक्ते गिफ्ट् इति अथवा प्रेसेण्ट् इति तादृश अर्थः अपि भवति, गिव् इति अर्थः अपि भवति. अतः तत्र प्रददाति इति अस्ति चेत् न जानीमः केवलं तत्र धनम् अस्ति वा अथवा तत्र उपानयत्वेन दत्तम् अस्ति वा इति न जानीमः.
उपसर्गपूर्वेण दत्तवान् किल महोदय?
किं भगिनि?
उपसर्गपूर्वेण दत्तवान्
सत्यं, किन्तु अतः प्रदत्तवान्, अतः तत्र प्रदत्तवान् इत्युक्ते दत्तवान् इत्युक्ते किमपि ददाति, प्रदत्तवान् इत्युक्ते तत्र यत् ददाति तद्. किं भगिनि प्रश्नः कः?
प्रसृष्टेन दत्तवान् विशेषतया
तत्र प्रेसेण्ट्, सः किमपि गिफ्ट् कृतवान् इति तस्मिन् अर्थे अस्ति. तत् तद् वक्तुं शक्नुमः. अस्तु, अस्ति अस्ति भगिनि, प्र एव अस्ति. सत्यं भगिनि, तत्तु साधारण अर्थः, किन्तु प्रत्येकशब्दस्य अर्थः तत्र पदं दृष्ट्वा एव वक्तुं शक्नुमः. तत्र गिव् मोर् इति अर्थः अपि अस्ति, किन्तु केवलं एकः एव अर्थः नास्ति खलु भगिनि पदस्य. अत्र अस्ति गिफ्ट् इति, गिफ्ट् अथवा उपायनम् इति, उपायनत्वेन इति अस्ति खलु, प्रदत्तवान्, अतः तत्र प्रेसेण्ट् अथवा बेस्ट् आव् इति अथवा गिव् सर्वं तत्र. अत्र दत्तवान् अपि समीचीनम् एव अस्ति भगिनि, सत्यं.
सुवर्णकङ्कणं वेल्युबल् अतः.
अस्तु 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 अग्रे गच्छामः. ओ अस्तु, तत्र समयः अपि जातः. तत्र कुत्र स्मः वयं? तत्र उद्योगिनी अयच्छत् सर्वं. शुभदा भगिनी सर्वं तत्र तस्मिन् परिच्छेदे सर्वं परिशीलितवन्तः इति मन्ये. अस्तु अस्तु, तर्हि तत्र अग्रिमवर्गे कथं समापयामः, किन्तु इदानीं समयः जातः. तत्र रघुवीर आनन्दमहोदय नमस्कारः, पुनरागतवान्, नमस्कारः. तत्र शान्तिमन्त्रं वदति वा समापयामः? धन्यवादः महोदय.
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम् महोदय.
धन्यवादः महोदय.
धन्यवादः.